पातु पातुपीष्ठतः पतिता वाम पार्श्वे तु दक्षिणे चापराजिता शिखा मुद्योतिनी रक्षे तुमा मूर्धनि व्यवस्थिता माला धरी ललाटे च भ्रुवौ रक्षेत् यशस्विनी त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्वारवासिनी कपोलौ कालिका रक्षे कर्णमूले तु शाङ्करी नासिकायां सुगन्धा च उत्तरोष्ठे च चर्षिका अधरे चामृतकला जिह्वायां च सरस्वती दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका घण्टिकां चित्रघण्टा च महामाया च तालुके कामाक्षी चिबुकं रक्षे वाचं मे सर्वमङ्गला जीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी बहिर्कण्ठे नलिकां नलकूपरी कन्दयो खड्गिनी रक्षे बाहु मे वज्रधारिणी हस्तयो दण्डिनी रक्षे चम्बिका चाङ्गुलीषु च तथा चूलेश्वरी रक्षे कुक्षौ रक्षे कुलेश्वरी तनौ रक्षे महादेवी मनः शोक विनाशिनी हृदये ललिता देवी उदरे शूलधारिणी नाभौ च कामिनी रक्षे गुह्यं गुह्येश्वरी तथा पूतना कामिका मेत्रं गुदे महिषवाहिनी कट्यां भगवती रक्षे जानुनी विन्ध्यवासिनी जङ्घे महाबला रक्षे सर्वकामप्रदायिनी गुल्फयो नारसिंहं च पादपृष्ठे तु तेजसी पादाम्बुलिषु श्रीरक्षे पादानस्थलवासिनी नखान्धष्ट्राकराली च केशाश्चैवोर्ध्वकेशिनी रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा रक्तमज्जावसामान्तान्यक्ति मेदान्ति पार्वती अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी पद्मावती पद्मकोशे कभे चूडामणिस्तथा ज्वालामुखी नखज्वाला मभेद्या सर्वसन्धिषु शुक्रं ब्रह्माणि मे रक्षे छायां छत्रेश्वरी तथा अहङ्कारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी प्राणापानौ तथा ज्ञान मुदानं च समानकम् वज्रहस्तासने रक्षे प्राणं कल्याणशोभना रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी तत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा आयु रक्षतु वाराही धर्मं रक्षतु वैष्णवी यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी पुत्रमिन्द्राणि मे रक्षेत् पशुर्मे रक्ष चण्डिके पुत्रान् रक्षेन् महालक्ष्मीर्भार्यां रक्षतु भैरवी बन्धानं सुपथा रक्षेन् मार्गं क्षेमकरी तथा राजद्वारे महालक्ष्मी विजया सर्वथा स्थिता
रक्षाहीनं तु यत्थानं वर्जितं तव चेद तु तत्सर्वं रक्ष मे देवी जयन्ती पापनाशिनी
पदुमेकं न गच्छेत्तु यदिच्छेत् शुभमात्मनः कवचेनावृतो नित्यं यत्र यत्तैव गच्छति तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः यं यं चिन्तयते कामम् तं तं प्राप्नोति निश्चितम् परमैश्वर्यमतुलम् प्राप्यते भूतले पुमा निर्भयो जायते मर्त्यः संग्रामेष्व पराजितः कैलोके तु भवेत् पूज्य कवचेनावृतः पुमान्
इदं तु देव्याः कवचम् देवानामपि दुर्लभम् यः पठेत् प्रयतो नित्यम् त्रिसंज्ञं श्रद्धयान्वितः
देवी कला भवेत् अस्य त्रैलोक्येष्व पराजितः वीरद्वर्षशतं सार्ध मपमृत्युः विवर्जितः
नश्यन्ति व्याधयः सर्वे लूता विस्फोटकादयः स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम्
अविचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले भूचराः खेचराश्चैव जलजाश्चोपदेशिकाः सहजाः पूजामाला दाकिनी शाकिनी तथा अन्तरिक्षचरा घोरा दाकिन्यश्च महाबलाः ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ब्रह्मराक्षसवेताला कूष्माण्डा भैरवादयः
नश्यन्ति दर्शनाथस्य कवचे हृदि संस्थिते मानोन्नतिर्भवेद्राज्ञ तेजो वृद्धिकरं परम्
यशथा वर्धत सोऽपि कीर्तिमण्डित भूतले
जपेत् सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा यावत् भूमण्डलं धत्ते शशैलवनकारणम् तावत् तिष्ठति मे दित्या सन्तति पुत्रपौत्रिकी
देहान्ते परमं स्थानं यत्तुरैरपि दुर्लभम्
प्राप्नोति पुरुषो नित्यं महामाया प्रतापतः
लभते परमं रूपम् शिवेन सह मोदते।